सर्वेषां स्वागतं। ध्येयमन्त्रेण आरम्भं कुर्मः। अस्तु भगिनि, शारदा भगिनि।
पठामि संस्कृतं नित्यं, वदामि संस्कृतं सदा, ध्यायामि संस्कृतं सम्यक्, वन्दे संस्कृतमातरम्। संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम्, संस्कृतस्य सदा भक्तो, वन्दे संस्कृतमातरम्। संस्कृतस्य कृते जीवन्, संस्कृतस्य कृते यजन्, आत्मानमाहुतं मन्ये, वन्दे संस्कृतमातरम्। हिन्दुधर्मं समाजं च पवित्रां संस्कृतिं तथा संरक्षणनु कुर्याम, विश्वं शान्ति समन्वितम्। ॐ शान्ति शान्ति शान्तिः। हरिः ॐ। श्रीगुरुभ्यो नमः। हरिः ॐ।
धन्यवादः भगिनि। अस्तु, आरम्भं कुर्मः। अद्यतनविषयः अस्ति द्वितीया विभक्ति, खलु? द्वितीया विभक्ति कथं भवति, कुत्र भवति? सो प्रथमं कथं भवति, एकवचने सर्वत्र मकारः, पुल्लिङ्गं वा स्त्रीलिङ्गं वा, परन्तु नपुंसकलिङ्गे अकारान्त नपुंसकलिङ्ग अस्ति चेत् वनम् इति अस्ति, परन्तु इकार उकार अस्ति चेत् तथा न भवति। इ एव दधि, दधिनि, दधीनि, मधु, मधुनि, मधूनि, परन्तु सर्वत्र अन्य सर्वत्र मकारः आगच्छति। धेनुं, वधुं, मातरं, कर्तारं, गुरुं, हरिं, तं, ताम् इत्यादि, परन्तु तथा नास्ति नपुंसकलिङ्गे। अस्तु, बहुवचने पुल्लिङ्गे नकारः अस्ति, रामान्, हरीन्, दीर्घं भवति। प्रथमा विभक्ति, द्वितीया विभक्ति, एकवचने हरि इति अस्ति चेत् अपि हरीन्, गुरून्, कर्तॄन्, पितॄन् दीर्घं भवति। एवमेव स्त्रीलिङ्गे दीर्घं भवति, परन्तु नकारः नास्ति, विसर्गः अस्ति। रमाः, मतीः, मति इति सप् इति अस्ति चेदपि मतीः, धेनूः, धेनुम् इति अस्ति, परन्तु धेनूः। अपि च मातृ, स्वसृ शब्दः अस्ति, परन्तु मातृः ऋ भवति, मातृः, स्वसृः इति। तावदेव, प्रश्नः अस्ति वा? अस्तु, इदानीं कुत्र उपयोगं कर्तुं शक्नुमः वयम्? अहम् एकं लिखितवती, कुत्र उपयोगं कर्तुं शक्नुमः? रूपाणि पठितवन्तः, दृष्टवन्तः, इदानीमपि कुत्र उपयोगं कर्तुं शक्नुमः वयं? कर्मपदं, प्रथमनियमः अस्ति कर्मपदं, यत्र कर्मपदं भवति तत्र द्वितीयाविभक्तिरूपं भवति। उदाहरणार्थं बालकः चषकं पश्यति इति अस्ति चेत् पश्यति, कः पश्यति? बालकः पश्यति। बालकः किं पश्यति? चषकं पश्यति, अतः चषकः चषकम् इति परिवर्तनं भवति। किमर्थम् इत्युक्ते चषकम् इति कर्मपदम्, अतः मकारः आगच्छति। अन्यत् किम् अस्ति? अन्यत् किम् अस्ति? कुत्र गच्छति? गमनक्रिया अस्ति चेत् स्थलं, कुत्र गच्छति इति स्थलस्य नाम द्वितीयाविभक्तिरूपं भवति, नाम द्वितीयाविभक्तिरूपं स्वीकरोति। उदाहरणार्थं पाठशाला अस्ति, कुत्र गच्छति? पाठशालां गच्छति। गच्छति इति केवलं न आगच्छति अपि नयति आनयति अहं पाठशालां पुस्तकानि नयामि कुत्र नयति पाठशालां नयति आपणतः परन्तु पाठशालां नयति इति विना अस्ति चेत् तृतीयाविभक्तिरूपं भवति रामेण विना परन्तु रामं विना अपि भवति खलु तृतीया अपि भवति द्वितीया अपि भवति सो द्वितीया अस्ति चेत् विकल्पेन विकल्पे इत्युक्ते चाय्स् विकल्पेन द्वितीयाविभक्तिरूपं भवति रामं विना न गच्छति रामेण विना अपि अस्ति रामं विना अपि अस्ति रामं विना सीतां विना सीतया विना सीतां विना अस्तु अनन्तरं त्वान्तं ल्यबन्तं तुमनन्तम् अपि च शत्रन्तं शत्रन्तम् अहं योजयामि अत्र शत्रन्तं पदानां योगे अपि द्वितीयाविभक्तिरूपं भवति गत्वा आगत्य गन्तुम् अपि च शतरन्तरूपं पठन् गच्छति गमन् गायति इति शतरन्तरूपं स्त्रीलिङ्गे गमन्ति पठन्ति गायन्ति इति भवति अपि च परितः उभयतः इति आगच्छति चेत् ततः पूर्वं द्वितीयाविभक्तिरूपं भवति गृहं परितः पाठशालां परितः मार्गम् उभयतः इति अपि च वयं द्विकर्मकधातुम् अपि पठितवन्तः द्विकर्मकधातवः के वदति पृच्छति प्रार्थयति आनयति वदति इत्युक्ते कथयति अपि केवलं वदति न उदाहरणम् अत्रापि केवलं गच्छति न गमनक्रिया इति वदति इत्युक्ते किमपि वदति दीर्घं कथां वदामः चेत् कथयति निवेदयति पृच्छति प्रार्थयति आनयति आनयति इत्युक्ते नयति अपि चत्वारः धातवः एव व्यवहारे बहुधा पश्यामः इत्युक्ते अन्यधातवः सन्ति परन्तु एते धातवः एव प्रसिद्धाः भवन्ति प्रश्नः अस्ति वा अत्र चाट् मध्ये किमपि प्रश्नः स्वागतं भगिनि अहं लिखामि के सन्ति इति एकवारं
नमस्कारः भगिनि अहं सरिता अस्मि
नमस्कारः भगिनि स्वागतम् अस्तु के सन्ति इति लिखामि श्रीनिवासमहोदय अम्ब अस्ति अद्य स्वागतम् अम्ब केतकि भगिनि सन्ध्या भगिनि शारदा भगिनि सविता उमाकृष्णन् भगिनि अस्तु परमेश्वर महोदय भवतः नाम अत्र न दृश्यते अस्तु इदानीं विभक्तिवल्लर्याम् अन्तिम अभ्यासं प्रति गच्छामः द्वितीया विभक्ति खलु
भगिनि एकवारं गृहपाठं पश्यामः
आमामाम् अत्र एव गच्छामि आं भगिनि आम् अस्तु अस्तु भगिनि भवती कृतवती खलु पठति वा
आं भगिनि
कविः
श्लोकं लिखति कविः श्लोकं लिखितवान् भूतकाल कविः श्लोकं लिखिष्यति
लेखिष्यति
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 भविष्यत्काले कविः श्लोकं लिखतु
लिखतु लिखतु
कविः श्लोकं लिखित्वा मन्दिरं गतवान् कविः श्लोकं लिखितुं लेखनीम् आनीतवान्
अत्रापि लेखितुं
लेखितुम् ओके कविः श्लोकं विलिख्य तत् सूक्तवान्
अस्तु
कविः श्लोकं लिखन् देवं मननं कृतवान्
उत्तमं भगिनि पुनः पठतु विलिख्य किं
कविः श्लोकं विलिख्य तत् सूक्तवान् ऐ मीन् हि रिसैटेड् द श्लोकं आफ्टर् रैटिङ्ग् इट् इस् इट् ओके भगिनि
तम् उक्तवान् खलु तम् उक्तवान् श्लोकम् इस् पुल्लिङ्गपदं खलु सो अतः तम् इति आगच्छति तम्
दट्
इस् फार् नपुंसकलिङ्गम्
श्लोकः इस् ओके Okay,
not napumsakalinga.
Loka is so it will be tam suktavan. Okay.
Tam suktavan, astu.
And the last one, is it likhan only, Bhagini, or is it...
Likhan only.
The screenati only last two, I tried, Bhagini, I'm not sure. I'll read it. Balakah lekhaneen kritavan. बालकः लेखनीं क्रेष्यति बालकः लेखनीं क्रीणातु आज्ञा बालकः लेखनीं क्रीत्वा पाठं लिखितवान् बालकः लेखनीं क्रेतुम् आपणं गतवान् what will it be for the next one that we need
I know vikriya iti asti iti chintayami vikriya
oh okay
bagini I found sankrinati so I got sang is a
एवं वा सङ्क्रीणाति इत्युक्ते अर्थः कः भगिनि
सेम् इट् इट् सेट् इन् द डिक्शनरी पर्चेस्
ओ पर्चेस् सङ्क्रीणाति वा अस्तु सङ्क्रीणाति
सो द प्रयोगं वुड् बी वाट् भगिनि
सो फार् उपसर्ग ऐ लैक् दिस् दिस् कोश आन्ध्रभारते सो अत्र वि रैट् क्रीणाति सो अत्र वि विल् सी द डिफ्रेण्ट् उपसर्ग भगिनि अभिक्रीणाति अवक्रीणाति आल्सो टु बै आक्रीणाति अपक्रीणाति निष्क्रीणाति परिक्रीणाति विक्रीणाति क्रीणाति इत्युक्ते टु बै विक्रीणाति टु सेल् सङ्क्रीणाति इस् आल्सो द सङ्क्रीणाति टु फैन् फार् यबन्त पद
So it would be sankriya is it Bhagini
sankriya sankriya vikriya parikriya niskriya like that.
Oh, it means sankriya.
Astu.
And the last one bhagini balakah lekhanim krinan, is it?
Krinan.
Krinan, okay.
So the way to find the ekanimsham lekhanim svikaroni
kri balakah lekhanim krinan pustakam kritavan
pustake likhitavan, that also we can say.
Okay, okay.
Krinan while he is buying, what did he do? Like
he bought a book also, pustakam or
pustakam api kretavan, pustakam api kretavan,
krishtavan, saw a book by
astu. So atra krinanti, so we take the bahuvachana roopam krinanti and then we remove the ta. So we get the shatranta roopam krinan.
Okay.
Patanti, patan, ti, ti tyajato, patan. So we get the shatranta roopam like that. Astu. Anya ke, Bhagini?
Is there a rule if I'm using twantam, lavantam, shatrantam and all? It should be in tavatu pratyaya, like likitavan, prishtavan, gatavan. Is that how krinan pustake likitavan, or can I say pustake likhati also is the
likhati also is it's fine.
Also, Bhagini, which is a good reference for Dhatu Rupam? Because I found Dhatu Rupam Allah to be very confusing, Bhagini, the app.
So, to find the Dhatu Rupam, I take two steps. Ekam asti atra. For example, Kreenati. Kree is the Dhatu Rupam. Kree.
Okay.
And then if you want to find other Rupanis, you go for Ashtadhyayi.
Okay.
So it's like several steps.
Okay.
So Ashtadhyayi Madhye, Kri Iti Likatu, to buy Iti Asti.
Okay.
So Atra Nodayatu, क्रीणाति सर्वम् आगच्छति परन्तु कृदन्तरूपाणि इदानीं नास्ति अग्रे प्रायः आगच्छति इदानीं नास्ति कृदन्तरूपाणि आवश्यकानि चेत् संसाधनी इति अन्येकम् अस्ति तत्र क्रीधातु इति लिखित्वा नोदयतु अत्र रूपाणि दृश्यताम् इति सर्वम् आगच्छति एतानि वयं न पठितवन्तः संसाधिनी ऐ सेण्ट् द लिङ्क् संस्कृत डाट् हैदराबाद् तः अस्ति यूनिवर्सिटि आफ् हैदराबाद् एसि ऐ एन् I sent the link there. So atra we also have the shatranta roopam. Shatra.
Okay, that's great.
Parantu atra it says krinat eva. Kimartam ityukte, this is like bhavat shabdaha. Bhavat.
So it was not Krinan, but
Krinat,
is it?
Krinat is the Moola Roopa.
Okay.
Similar to Bhavat is the Moola Roopa. From Bhavat, we have Bhavan, Bhavantau, Bhavantah, Bhavan. But here it is Krinan, Eva.
Okay.
for patati we will see patat patat patanti and then patat again patat you will see pullinge patan bhavati patan patantau patantah very interesting astu anya prashna asti va anya kopi likhitavantah va griha patam
aham likhitam
astu bhagini patat
कविः श्लोकं लिखति कविः श्लोकं लिखितवान् कविः श्लोकं लिखिष्यति कविः श्लोकं
एकनिमिषं भगिनि
लिखिष्यति कविः श्लोकं लिखतु कविः श्लोकं लिखित्वा गृहं गत्वा कविः श्लोकं लेखितुं पुस्तकं स्वीकृतवतु स्वीकृतवतु भगिनि right
svikrutavan svikarotu
svikrutvan
no no svikrutavan samyakeva svikrutavan astu
kavihi shlokam likhitva gruham gatvan
okay
kavihi shlokam likhan nindram krutvan
nindram krutvan astu so atra vilikya kimartam itike upasargah avashyakah kalo त्वा ल्यबन्तरूपम् अस्ति चेत् विलिख्य अस्तु अन्य
कोऽपि
विल् सी इफ् नो बडी इस् देर् यु रीड् भगिनि अन्य कोऽपि लिखितवती वा अथवा कापि लिखितवती
वा वदामि वा भगिनि
वदतु भगिनि
कविः श्लोकं लिखति कविः श्लोकं लिखितवान् कविः श्लोकं लेखिष्यति कविः श्लोकं लिखतु कविः श्लोकं लिखित्वा शिष्यान् पाठयति कविः सम्यक् श्लोकं लेखितुं देवं नमति कविः श्लोकं विलिख्य शिष्यान् पाठयति कविः श्लोकं लिखन् श्लोकं लिखन् देवनाम सर्वदा स्मरति
सम्यक् भगिनि सो अत्र हे श्लोकं लिखतु इति वदति चेत् अत्र सम्बोधनरूपम् आगच्छति खलु
आं भगिनि
कवे इति वदति हे कवे श्लोकं लिखतु पठतु इति अस्तु सम्यक् भगिनि अन्य अस्तु केतकी भगिनी पठति वा
आं भगिनि बालकं लेखनी क्रीणाति बालकः लेखनीं क्रीणाति बालकः लेखनीं क्रीणीतवान् बालकः
लेखनी क्रीतवान्
बालकः लेखनी क्रीणिष्यति
न भगिनि अत्रापि क्रेष्यति
ओके अण
न
अस्तु बालकः लेखनीं क्रीणतु बालकः लेखनीं क्रीणीत्वा गृहं गत्वा क्रीत्वा गृहं गत्वा बालकः लेखनीं क्रीणीतुं पुस्तकं
स्वीकृतवती अत्रापि क्रेतुमेव अस्माकं L1 हेण्ड् औट् मध्ये पश्यतु भगिनि मध्ये क्रीणातु क्रीतवान् क्रेष्यति क्रीत्वा क्रेतुम् अत्र नकारः न आगच्छति
अस्तु बालकः लेखने क्रेतुं
क्रीत्वा क्रेष्यति क्रीतवान् अत्र एव क्रीणातु क्रीणाति क्रीणातु अन्य सर्वत्र णकारः न आगच्छति.
अस्तु अस्तु. बालकः लेखनीं बालकः लेखनीं क्रीणन् निद्रां कृतवान्.
क्रीणन् निद्रां
कृतवान्
कृतवान् वा. अस्तु अस्तु,
धन्यवादः.
धन्यवादः. अस्तु भगिनि.
केतकी भगिनी ऐ थिङ्क् जस्ट् सेड् बालकः लेखनीं क्रीत्वा गृहं गत्वा, शुड् इट् बि गृहं गत्वा गृहं गतवान् भगिनि?
गतवान्, ऐ थिङ्क् शी डिन्ट् प्रनौन्स् वान् प्रापर्लि. गत्वा, गतवान् खलु खलु केतकी भगिनी. पुनः पठतु केतकी भगिनी, पुनः पठतु. लेखनीं क्रीत्वा केतकी भगिनी अस्ति वा?
आं भगिनी, अहम् अस्ति.
पुनः पठतु. लेखनीं बालकः लेखनीं क्रीत्वा गृहं
गत्वा
गत्वा वा गतवान् वा?
गतवान्, सोरि,
गतवान्. तदेव अहं चिन्तितवती. अस्तु,
गतवान्
गतवान्. सो अत्र त्वान्तम् अस्ति चेत् अन्तिमक्रियापदं त्वान्तं न भवति. त्वान्तम् इत्युक्ते तत् पदं, तत् क्रिया समाप्तम् इति खलु. गतवान् एव खलु. भवती किं पठितवती? गतवान् पठितवती वा गत्वा इति पठितवती वा?
अहं पठितवती गत्वा, परन्तु गतवान् आगत राइट् भगिनि?
आमाम्, ऐ हर्ड् इट् एस् गतवान् भगिनि. अस्तु,
धन्यवादः.
धन्यवादः सन्ध्या भगिनी. शात् शात् यस्. अस्तु,
no, I was just trying to understand, that's all. Thank you.
I heard it as gatvan. Okay, gatva, gatvan, they sound the same. Okay, astu, agre. Anya kopi nasti che antima abhyas.
Should I always say, when I say patatu, it should be either bhavan bhavati or the sambodhana rupa of the
उदाहरणम् अत्र सः पाठं पठतु इत्युक्ते लेट् हिम् रीड् द बुक् और् द लेसन् इति अर्थे अस्ति. सः पाठं पठतु, लेट् हिम् रीड् इति अर्थे अस्ति. सो इट् विल् शो इन् द टोन्. सः पाठं पठतु, लेट् हिम् रीड् लैक् दट्. परन्तु भवान् इति वचे भवान् पाठं पठतु. सो अगेन् इन् द टोन्. अत्र इफ् इट् से लैक् बिकास् यु चेञ्ज् इट् लैक् पठतु लैक् दट् यु नो, सो देन् इट् बिकम्स् मोर् लैक् एन् आर्डर्.
अवगतं भगिनि.
बट् यु केन् आल्सो से कविः पाठं पठतु, लैक् लेट् द पोयेट् रीड् द थिङ्ग् यु नो, लेट् द पोयेट् रीड् द लेसन्.
अवगतं भगिनि.
तदपि सम्यक् एव. अस्तु, अन्यप्रश्नः अस्ति वा? नो चेत् अन्तिम अभ्यासं कुर्मः.
Bagini,
Bagini,
I sent it the link. I also found some very good on a YouTube, all the this Katwa and Krishantarupa.
Oh, evam va, uttamam Bagini, bahu samyak.
I sent it to on a link.
Uttamam.
It's on a YouTube. Yes, very good. He the guy is explaining very nicely. Very sweetly.
Oh, uttamam, uttamam. Dhanyavada, bhagini.
Dhanyavada, bhagini.
Dhanyavada. So, atra, antima, अन्तिम अभ्यासे साधारण नामपदं न इतोपि पर्यन्तं वयं न पठितवन्तः तादृशनामपदानि एव सन्ति अत्र इकार उकार एतादृशपदानि वयं प्रथमभागं कृतवन्तः इदानीं द्वितीयभागं कुर्मः खलु सो पुनरेकवारं पश्यामः इकार उकार सर्वत्र एकवचनरूपे मकारः अस्ति परन्तु पुल्लिङ्गं वा स्त्रीलिङ्गं वा इति ज्ञातव्यं बहुवचनरूपं लेखनसमये एकवचने तथा संशयः न आगच्छति हरिः पुल्लिङ्गं वा स्त्रीलिङ्गं वा न जानामि अस्तु हरिमेव धेनु पुल्लिङ्गं वा स्त्रीलिङ्गं वा न जानामि अस्तु धेनुम् एव सम्यक् एव भवति परन्तु बहुवचनरूपलेखनसमये एव पुल्लिङ्गं वा स्त्रीलिङ्गं वा इति ज्ञानम् आवश्यकं किमर्थम् इत्युक्ते पुल्लिङ्गम् अस्ति चेत् नकारः अस्ति स्त्रीलिङ्गम् अस्ति चेत् विसर्गः अस्ति धेनुः इति अस्तु वा अस्तु वयं कथं जानीमः अभ्यासेन एव पुनः पुनः पठामः चेत् मनसि तिष्ठति पुल्लिङ्गं वा स्त्रीलिङ्गं वा इति अस्तु श्रीनिवासमहोदय आरम्भं करोतु आवरणे सः आरम्भं करोतु आवरणे
आवरणे दत्तानां शब्दानां द्वितीया द्वितीयान्तेन रूपेण एकवचनं रिक्तस्थलं पूरयत
रिक्तस्थलं द्वितीयान्तेन चेत् द्वितीय अन्तेन द्वितीय अन्तेन रूपेण अन्तं द्वितीयं द्वितीयविभक्ति सूचयति द्वितीयविभक्तिं सूचयति
उदाहरणः शिष्यः गुरुः गुरुं नमति
गुरुं नमति उदाहरणम् उदाहरणं शिष्यः गुरुं नमति सम्यक् सो अत्र बहुवचनं किं भवति अभ्यासात् पृच्छामि अभ्यासात् अत्र बहुवचनं मास्तु परन्तु
गुरून् नमति
गुरून् नमति सम्यक् पुल्लिङ्गपदम् अतः एव मनसि तिष्ठति गुरु इति पुल्लिङ्गपदम् इति अस्तु अग्रिमं करोतु
भक्तः हरिं नमति
हरिः एकः एव परन्तु अभ्यासार्थं
भक्तः हरिं नमति
हरिं नमति अस्तु सम्यक् सम्यक् अस्तु अम्ब हरिं नमति अस्तु अम्ब
भगिनी
भगिनि विभक्तिवल्लरि षोडश
सः नमति
कविं नमति सम्यक् कविं नमति बहुवचनमस्ति चेत्
कवीन् नमति
कविः इति पुल्लिङ्गपदं कविः अस्तु धन्यवादः अम्ब केतकी भगिनि
कविः कुड् बि बोत् पुल्लिङ्ग बिकास् अ पोएट् कुड् बि ईदर् अ मेल् आर् फीमेल्
रैट् सम्यक् परन्तु अहं चिन्तयामि कवित्री इति अस्ति इति स्त्रीलिङ्गपदं
कवि
इस् देर् एनी वर्ड् कवयित्री
कवयित्री लैक् दट् कवित्री
कवयित्री
आमामां निश्चयेन सो वि केन् डू सम् रिसर्च् फार् द स्त्रीलिङ्ग् आफ् फार् कवि पोयट् अस्तु
कवयित्री
कवयित्री एव अहमपि चिन्तयामि कवयित्री कवयित्री.
Are we doing the dvitiya vibhakti na?
Aam bhagini.
Okay. I couldn't find the page according to what you gave. Maybe I have an older version or something. So what's the title? Are we in the tritiya or dvitiya?
Dvitiya bhagini.
Okay.
Dvitiya exercise 12-2.
Aam. 12-2. अस्तु अग्रे
अहं वदामि वा
केतकि भगिनि आं केतकि
तृतीया न
आम् एकनिमिषम् अस्तु
सा मुरारीं नमति
मुरारीं मुरारिः इति एकः एव परन्तु अभ्यासार्थं वदतु
मुरारीम् और् मुरारीम्
मुरारिम् इति एकवचनं बहुवचनं कथं भवति
मुरारीन्
रीन् मुरारीन् नमति अस्तु सन्ध्या भगिनी माता
बालकः मातरं
मातरं नमस्करोति अस्तु कुत्र अस्ति मातरं नमस्करोति
बालकः मातृः
मातृः दीर्घं भवति मातृः नमस्करोति मातृः नमस्करोति अस्तु सम्यक् शारदा भगिनी बालिका
बालिका पितरं नमस्करोति बालिका पितॄन् नमस्करोति
पितॄन् पुल्लिङ्गः अतः नकारः अस्ति अन्ते अस्तु पितॄन् नमस्करोति अस्तु सविता भगिनी
आं भगिनि गृहिणी धेनुं नमस्करोति
धेनुं नमस्करोति
गृहिणी धेनुः
धेनुः स्त्रीलिङ्गपदं
बहुवचनं धेनुः
धेनुः
गृहिणी धेनुः नमस्करोति
धेनुः नमस्करोति सम्यक् सो अत्र प्रथमा विभक्ति धेनवः इति भवति धेनुः धेनू धेनवः धेनुः नमस्करोति अस्तु अग्रे उमाकृष्णन् भगिनी
भगिनी मै फ्रेण्ड्स् डाटर् शी पुट् द नेम् धेनु धेनु धेनवः हर् डाटर्स् नेम्
अस्तु सम्यक्
भगिनी वाट् इस् द मीनिङ्ग् आफ़् उदधिः
उदधिः Actually,
sea or river.
I remember, but now I forgot.
Ocean, ocean bhagini.
Udadi.
Now
I remember.
Karumi va?
Vadata bhagini. Karut.
Graminaha udadihi pashyati.
Udadihi pashyati. Udadihi iti pullingam va, strilingam va? Pullingam.
See,
if you don't know, we can check. Astu va? Udadihi.
That is a good one.
Any water body for that matter. It is river, cloud.
It has to be strilinga. Correct.
Ocean, everything is udadihi.
Udadihi. सो अत्र 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 पश्यतु it is for everything, like what you said, pullinga, strilinga, napumsaka, everything is there. Parantu majority is pullinga. M iti asti. So if we look up, we will definitely remember udadihi itikte kim iti astu. वदतु ग्रामीणः
ग्रामीणः उदधि पश्यति
उदधिं पश्यति
उदधिं पश्यति
एकवचनं बहुवचनं
बहुवचनं इस् सो वी गो एट पुल्लिंग पुल्लिंग
पुल्लिंग पुल्लिंग पुल्लिंग
इट विल बी उदि उदधिं
उदधिं. Then it becomes dirgha. It becomes dirgha. Udadheen. Udadheen pashyati. Ikaranta padam. Udadheen pashyati. So, atra vayam pashyamaha che, any water receptacle, even a cloud, iti asti. River, sea, cloud. Astu. अग्रे अत्र परमेश्वर महोदय अस्ति वा
सारि यस् अध्यापकः वडून् बोधयति
वटुः बोधयति परन्तु ततः पूर्वं वेणुः महोदय
कृष्णः वेणुं वादयति कृष्णः वेणून् वादयति
सो वेणुः इति पुल्लिङ्गं वा स्त्रीलिङ्गं वा तत् प्रथमं
पुल्लिङ्गं
पश्यामः वा एकवारं अहं चिन्तयामि स्त्रीलिङ्ग इति पुल्लिङ्ग एव पुल्लिङ्ग सो अत्र वदतु
अद्य सोरि कृष्णः वेणुं वादयति कृष्णः वेदून्
वेणून् वादयति सम्यक् वेणून् वादयति सम्यक् अस्तु अग्रे
अध्यापकः सोरि
ओके पठतु
अध्यापकः वडुं बोधयति वटुं बोधयति अध्यापकः वटून् बोधयति
वटुः इत्युक्ते किं वटुः इत्युक्ते अर्थः कः
वटुः इस् ब्रह्मचारी
ब्रह्मचारी अथवा यङ्ग् बाय् युवकः इत्यादि युवकः बालकः सर्वत्र वटुः एव वटुः अस्तु सम्यक् उषा भगिनी अस्ति वा
अस्मि
अस्तु भगिनि
स्नेहितः भ्रातान्
सो भ्राता इति एवं भ्राता इति पिता इव पिता पुल्लिङ्गपदं खलु भ्रातृ
चतुर्थी भ्रातृन्
भ्रातरं
भ्रातरम् इट्स् ओके पितरम् ओके लैक् एकवचनं
बहुवचनं
भ्रातृन्
भ्रातॄन्
भ्रातॄन् इट्स् दीर्घ
दीर्घ वदतु भगिनि स्नेहितः
स्नेहितः भ्रातरः भ्रातरम् आह्वयति
भ्रातरम् आह्वयति सम्यक्
स्नेहितः भ्रातॄन् आह्वयति
सम्यक् भ्रातॄन् आह्वयति. अन्य कोऽपि अस्ति वा? न. अस्तु, पुनः श्रीनिवास महोदय पुनः.
आम् भगिनि, आवरेण दत्तानां शब्दानां द्वितीया बहुवचन बहुवचन अन्तेन रूपेण रिक्तस्थानानि पूरयत. उदाहरणः
उदाहरणं
छात्र उदाहरणं छात्रः गुरु पुल्लिङ्गं गुरून् नमति.
गुरून्
एकवचने गुरुं नमति.
सम्यक्, गुरुं नमति. सो हियर् दे गेव् अस् पुल्लिङ्गं वा स्त्रीलिङ्गं वा इति, अतः संशयः न भवति. अस्तु, अग्रिमं करोतु.
वनपालः कपीन् दूरीकरोति.
कपीन् दूरीकरोति. सम्यक्,
दूरीकरोति. एकवचने कपिं दूरीकरोति.
सम्यक्, कपिं दूरीकरोति, कपीन् दूरीकरोति. सम्यक्. अम्ब,
भक्ताः मुनि प्रणमन्ति.
सम्यक्, मुनीन् प्रणमन्ति, नमन्ति, प्रणमन्ति. प्रणमन्ति. एकवचने
भक्ताः मुनिः प्रणमति.
प्रणमन्ति. मुनिः इति प्रथमा विभक्ति. द्वितीया विभक्ति कथं भवति?
मुनिं
प्रणमन्ति. भक्ताः मुनिं प्रणमन्ति. सम्यक्, सम्यक्. धन्यवादः. केतकि भगिनी.
धात्री शिशून् पालयति.
शिशु,
हा शिशु एकवचनं, शिशून् बहुवचनं.
शिशुम् एकवचनं, शिशून् बहुवचनं. सम्यक्, सम्यक्. संध्या भगिनी.
सैनिकाः शत्रुं मारयन्ति. एकवचनं. सैनिकाः शत्रून् मारयन्ति.
सम्यक्, सम्यक्, सम्यक्. अस्तु, अग्रे शारदा भगिनी.
गृहस्थः अतिथिं सत्करोति. एकवचने. गृहस्थः अतिथीन् सत्करोति. बहु
सम्यक्, सम्यक्, सम्यक्. सविता भगिनी.
आं भगिनि, चतुरः युक्तिं
युक्तिम्
उपदिशति. चतुरः बहुवचन
एकवचने युक्तिं, बहुवचने दीर्घ भवति. सो अत्र विसर्गः श्रूयते. स्त्रीलिङ्ग अस्ति चेत् विसर्गः, पुल्लिङ्ग अस्ति चेत् नकारः. अत्र स्त्रीलिङ्ग अस्ति खलु, सो युक्तिः, मतिः इव युक्तीः दीर्घं भवति. युक्तीः उपदिशति. अस्तु, सम्यक्. अग्रे सविता भगिनी.
युक्तिः, चतुरः युक्तीः उपदिशति.
सविता अभवत् खलु. उमाकृष्णन् भगिनी. उमाकृष्णन् भगिनी.
छात्रः कालिदासस्य कृतीः पठति.
सम्यक्, कृतीः पठति. एकवचने
कृतिं पठति.
सम्यक्, कृतिं पठति. सम्यक्. परमेश्वर महोदय.
ग्रन्थानाध्यापक
प्रधान
प्रधानाध्यापक पितॄन् नमस्कार निमन्त्रयति
निमन्त्रयति पितॄन् सम्यक्
पितॄन् निमन्त्रयति ग्रन्थानाध्यापकः पितृरं निमन्त्रयति
पितरं
पितरं सोरि पितरं
सोरि महोदय पितरं
पितरं
पितरं पितॄन् पितरं
पितरं
पितरं निमन्त्रयति प्रधान अध्यापकः अस्तु सम्यक् अस्तु अग्रे उषा उषा भगिनी कार्यकर्त्री
कार्यकर्त्री मातृ स्त्री मेलयति दिस् इस् इकारान्त स्त्रीलिङ्गं
नो दिस् इस् ऋकारान्त ऋ
स्त्री ऐ सी So it will be, oh, how does it go? Let's see again. The sentence? Karyakartri. Matru. Oh, okay, that was a strilingam, I see. Okay, I was thinking that was a word. Okay. Karyakartri mataram melayati.
मातरं मेलयति सम्यक्
वचनं मातॄन् मेलयति
नकारः ओन्लि फार् पुल्लिङ्ग स्त्रीलिङ्ग मातृः सर्वत्र विसर्गः भवति
मातृः
मातृः मातृः मेलयति
मातृः मेलयति
मातृः मेलयति अन्य कोऽपि अस्ति वा अस्तु श्रीनिवास महोदय याचकः
आं भगिनि याचकः दातॄन्
दातॄन् पश्यति दातॄन् पश्यति परन्तु एकवचने किञ्चित् भिन्नं भवति दाता इति इट् बिकम्स् लैक् कर्ता इट्स् नाट् पितरं वत् not like pitaram but it is kartaram
okay so dattaram ekavachana
yachakah yachakah dataram pashyati
dataram
pashyati it won't be like dataram dataram kartaram यः कार्यं करोति सः कर्तृ खलु खलु कर्ता सेवकः कर्ता इति अनुमानं कुर्मः चेत् अहं कर्तारं पश्यामि कर्तरं न भवति दातारम् इति भवति दातारं श्लोके अपि अस्ति खलु दातारं
दातारं सर्वसम्पदाम्
दातारं सर्वसम्पदाम् पुनः 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 वदतु भगिनि
आपदामपहर्तारं दातारं सर्वसम्पदां लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम्
सर्वत्र द्वितीयाविभक्तिरूपमेव सम्यक् बहु सम्यक् आपदाम् अपहर्तारं सि हर्ता हर्तारं द्वितीया विभक्ति दट्स् अ ब्यूटिफुल् श्लोक वि शुड्
अनलैज् दट्
अपहर्तारं
दातारं सर्वसम्पदां द गिवर् आफ् आल् रिचेस्
करेक्ट् दातारं
लोकाभिरामं श्रीरामं भूयो भूयो नमामि ऐ बो टु यू अगेन् अगेन् ग्रेट् लार्ड्
भूयो नमाम्य नमामि अहं नमाम्यहं सम्यक् सम्यक् सो अत्र अत्रैव दातारम् इति भवति अस्तु अन्य प्रश्नः अस्ति वा द्वितीया विभक्ति समाप्तम् इदानीं तृतीया विभक्तिरूपं प्रति गच्छामः तृतीया
सोरि सोरि
वदतु भगिनि
युक्ति इत्युक्ते ऐडिया युक्ति
चतुरः युक्ति हेस् अ लाट् आफ् ऐडिया लाट् आफ् मीनिङ्ग्स् भगिनि युक्ति चतुरः युक्ति मीन्स् सम् ऐडिया युक्तिम् उपदिशति युक्तिं परन्तु इट् केन् आल्सो बि यूस् लैक् अ वर्ब् उदाहरणार्थं लैक् अत्र अपि अस्ति वा इति पश्यामि अस्तु नास्ति सो बहुवचनयुक्तवाक्यानि युक्त सो अत्र युक्त मीन्स् इट् इस् एडेड् इति अर्थे अपि अस्ति वित् वित् इति योजनं योजनं योजयित्वा युक्त्वा लैक् दट् युक्ति
धन्यवादः
अन्य प्रश्नः अस्ति वा द्वितीया विभक्ति न अस्तु इदानीं वयं तृतीयाविभक्तिरूपं पश्यामः तृतीयाविभक्तिरूपम् एवम् अस्ति विभक्ति इति आगच्छति चेत् कार्यद्वयम् अस्ति खलु कथं लेखनीयम् इत्युक्ते रूपाणि कानि अपि च कुत्र उपयोगं करणीयं प्रथमं रूपं पश्यामः वयं जानीमः एन रामेण बालकेन हस्तेन चमसेन चषकेन एवमेव नपुंसकलिङ्गे अपि कार्यानेन विमानेन अन्य किं रेल्यानेन इति एन एन पुस्तकेन एन एन वयं जानीमः बहुवचने ऐः इति भवति उच्चैः इति वदामः परन्तु उच्चैः इति रूपमेव स्वीकुर्मः रामेण रामैः रामाभ्यां बहु सुलभः अहं नेत्रेण पश्यामि नेत्राभ्यां पश्यामि नेत्रैः न नेत्रैः इति रावणः एव पश्यति नेत्रैः इति एवमेव हस्तेन कार्यं करोमि हस्ताभ्यां पादाभ्यां दन्तेन चर्वणं करोमि दन्तैः चर्वणं करोमि सो अत्र एवं भवति पुल्लिङ्गे नपुंसकलिङ्गे एव ऐः इति श्रूयते अपि च सर्वनामपदे अपि तैः तेन ताभ्यां तैः केन काभ्यां कैः समानरूपं भवति पुल्लिङ्गे नपुंसकलिङ्गे सर्वनामपदम् इति परन्तु अन्य सर्वत्र आ एव श्रूयते उदाहरणार्थं रमया लेखन्या भक्तिः अहं भक्त्या गायामि भक्तिः भक्त्या इकारान्तपदं मत्या गौरी गौर्या तत्रापि आ एव धेनुः अत्र उकार अस्ति चेत् व योजयामः उकार अस्ति चेत् व योजयामः इकार अस्ति चेत् य योजयामः मतिः मत्या गौरी गौर्या एव मत्या परन्तु उकार अस्ति चेत् व योजयामः धेनुः धेन् वा वधूः वद् वा माता मात्रा आ भवति हरि हरिणा रामेण इति आगच्छतु नकारः योजयामः रामेण अत्र हरिणा आ दीर्घं भवति गुरु गुरुणा गुरुणा उक्तं गुरुणा उक्तम् पिता पित्रा मात्रा अत्र कर्ता पिता इति भिन्नरूपं दाता दातारौ दातारः परन्तु पिता पितरौ पितरः एव तृतीयविभक्ति आरभ्य तादृशभेदः नास्ति नो डिफ्रेन्स् कर्तापि कर्त्रा कर्तृभ्यां कर्तृभिः पित्रा अपि मीन् पितापि पित्रा पितृभ्यां पितृभिः एव अस्तु. अग्रे सर्वत्र द्वितीया विभक्ति भ्यां भवति. इकार अस्ति चेत् हरिभ्याम्, उकार उभ्याम्, ऋकार ऋभ्याम्. मूलरूपं किम् अस्ति तत् अनुसृत्य एव द्वितीया द्विवचनरूपं भवति. तृतीया विभक्ति द्विवचनरूपं तथा एव भवति. एवमेव स्त्रीलिङ्गे अपि समानरूपं समाननियमः. रमा आभ्यां, मति इभ्यां, गौरी ईभ्यां, धेनुः धेनुभ्यां, वधू ऊभ्यां, मातृ ऋभ्यां. नपुंसकलिङ्गे पश्यामः तत्रापि एवमेव वारि इभ्याम् उभ्यां. सर्वत्र द्विवचनं बहु सुलभः. नपुंसकलिङ्गे अपि न भवति वारि वारिणा, मधु मधुना. अत्र व न भवति. स्त्रीलिङ्गे व आगच्छति परन्तु नपुंसकलिङ्गे न एव. किमर्थम्? तृतीया विभक्ति आरभ्य पुल्लिङ्गे नपुंसकलिङ्गे समानं खलु. पुल्लिङ्गे नपुंसकलिङ्गे समान तृतीया विभक्ति आरभ्य. अस्तु, इदानीं बहुवचनं पश्यामः. अकारान्तपुल्लिङ्ग अकारान्त नपुंसकलिङ्गे ऐः इति भवति. अन्य सर्वत्र भिः एव. बहु सुलभः. हरि हरिभिः, गुरु गुरुभिः, पिता पितृभिः. किमर्थं पितृ? पितृ इति मूलरूपं. पितृभिः. रमा रमाभिः, मति मतिभिः, गौरी गौरीभिः, धेनु धेनुभिः, वधू वधूभिः, मातृ मूलरूपं मातृभिः. एवमेव ज्ञानं ज्ञानैः, तत् जानीमः. वारि वारिभिः, मधु मधुभिः. सुलभः खलु? बहु सुलभः. सर्वनामपदं तेन ताभ्यां तैः, केन काभ्यां कैः, सर्वेण सर्वाभ्यां सर्वैः. एतत् मास्तु. मया मया आवाभ्याम् अस्माभिः, त्वया युवाभ्यां युष्माभिः. एतत् इदानीं मास्तु. मयापि इदानीं मास्तु. एतत् सर्वम् इदानीं मास्तु. अस्तु, भवत् शब्द भवत् शब्द किञ्चित् भिन्नरूपं भवति. भवत् भवता, परन्तु भवद्भिः. किमर्थं भवद्भिः? मूलरूपं भवत्, अतः भवद् भवद्भिः इति अस्ति. अत्र भवती मूलरूपं, भवतीभिः, भवतीभ्यां, भवत्या, गौरी गौर्या, भवती भवत्या. तावदेव. प्रश्नः अस्ति वा? सुलभः खलु? रूपाणि सुलभानि. अस्तु, कुत्र उपयोगं कर्तुं शक्नुमः इति पश्यामः. प्रथम अस्ति साधनम्. साधनम् इत्युक्ते वयं किमपि कार्यं कुर्मः चेत् किम् उपयुज्य कार्यं कुर्मः, तत् वस्तु अस्ति साधनम् इति. साधनम् उपयोगं कुर्मः चेत् तस्य पदस्य तृतीयाविभक्तिरूपम् आगच्छति. अतः पुल्लिङ्गं वा स्त्रीलिङ्गं वा इति ज्ञानम् आवश्यकम्. दण्डेन इत्युक्ते पुल्लिङ्गं वा स्त्रीलिङ्गं वा नपुंसकलिङ्गं वा? पुल्लिङ्ग अथवा नपुंसकलिङ्गं, दण्डं वा दण्डः वा? दण्डः
दण्डः
दण्डः दण्डः अस्ति. सः दण्डेन शुनकं ताडयति. एतत्तु भारते चलति खलु, दण्डेन शुनकं ताडयति इति अभ्यासः. एतैः साधनैः, तृतीया बहुवचनं, एतैः साधनैः इत्युक्ते यूसिङ्ग् दीस् साधनम्, भवन्तः किं कर्तुं शक्नुवन्ति इति लिखतु. उदाहरणं करवस्त्रम्, अहं करवस्त्रेण मुखं मार्जयामि, करवस्त्रेण मुखं मार्जयामि. अस्तु, पुनः श्रीनिवासमहोदय, भवान् एव.
आं भगिनि, कर्तरी, अहं कागदं कर्तयामि, अहं
कर्तरी इति स्त्रीलिङ्गपदम्. कर्तर्या अपि च बहुवचनमपि वदतु. सो अतः अभ्यासं भवति.
ओके, अहं कर्तर्या कागदं कर्तयामि, अहं कर्तरीभिः,
सम्यक्, कर्तरीभिः,
कर्तरीभिः कागदं कर्तयामि,
सम्यक्,
कर्तरीभिः,
सम्यक्, कर्तर्या कर्तरीभिः, कर्तर्या कर्तरीभिः. अस्तु, सो अत्र उकार अस्ति चेत् एव वा आगच्छति, अन्य सर्वत्र या एव. उकार अस्ति चेत् वा, बहुवचनम् ईभिः, आभिः, इभिः, उभिः, ऊभिः, सर्वत्र मूलरूपं किम् इति दृष्ट्वा तद् तदनुसृत्यमेव द्विवचनम् अपि च बहुवचनमपि भवति. अस्तु, अग्रे अम्ब, कुञ्चिका,
कुञ्चिकया.
धन्यवादः उषा भगिनि,
धन्यवादः. अहं तालम्
तालम् उद्घाटयं, तालम् इत्युक्ते लाक्.
अहं तालया उद्घाटयामि,
न अम्ब, तालम् उद्घाटयामि, कुञ्चिकया तालम् उद्घाटयामि.
सारि, अहं कुञ्चिकया तालम् उद्घाटयामि,
तालम् उद्घाटयामि, कुञ्चिकया तालम् उद्घाटयामि. बहुवचनं कथं भवति?
अहं कुञ्चिकैः,
कुञ्चिका इति अस्ति खलु, सो अतः कुञ्चिकाभिः इति भवति,
कुञ्चिकाभिः तालम् उद्घाटयामि,
तालम् उद्घाटयामि, कुञ्चिकाभिः तालम् उद्घाटयामि. अहम् अन्यपदं वदामि, स्थालिका अन्नम् आनयामि,
स्थालिकया अन्नम् आनयामि,
सम्यक्. बहुवचनम् स्थालिका इति वदतिः, सम्यक्, स्थालिकाभिः अन्नम् आनयामि, सम्यक् सम्यक्. केतकि भगिनि,
आं भगिनि,
अग्रिम,
उड्डयनयन्त्रं,
उट्टङ्कनयन्त्रम्, उट्टङ्कनयन्त्रम् इत्युक्ते टैप्रैटर्.
ओ, उट्टकनं यन्त्रं, यन्त्रेण अहम् उट्टकनं करोमि, बहुवचनं उट्टकनं, बहुवचनं
भगिनि, भगिनि, उट्टङ्कनं,
उट्टङ्कनं,
सम्यक्,
बहुवचन उट्टङ्कनं यन्त्रं, यन्त्रेभिः
यन्त्रैः यन्त्रैः अकारान्त अस्ति चेत् एव यन्त्रैः इति भवति अकारान्तपुल्लिङ्ग अकारान्त नपुंसकलिङ्ग अस्ति चेत् एव ऐः इति भवति
यन्त्रैः ओके यन्त्रैः अहम् उट्टकन्नं करोमि
पुनरेकवारम् उट्टङ्कनम् उट्टङ्ग
उट्टङ्कनं
सम्यक् अस्तु सन्ध्या भगिनि
Suddenly this whole week I'm going to be saying Uttanga Nayantram.
In the morning, good exercise.
Sivanayantram.
Sivanayantram.
Keep chanting it a little good for the mouth.
Good for the mouth. Uttanga Nayantram.
In the morning, good exercise.
It's like so musical, Bhagini.
Actually, we should chant the Maheshwara Sutrani every class. Maybe we
I
should
know.
Do that.
Yeah, Bhagini, we should do that.
Yeah, okay.
Next.
That would be very interesting.
Yeah, that would be very interesting. Yeah, we can start the day very nicely. Also, Sivana Yantra. Sivana
Yantrena Aham Sivanam Karomi.
Samyak.
सीवनयन्त्रं
सोयिङ्ग् मशीन्
सीवनयन्त्रैः अहं सीवनं करोमि
सीवनयन्त्रैः सम्यक् सम्यक् शारदा भगिनी विमानं
विमानेन अहं सञ्चारं करोमि विमानैः अहं सञ्चारं करोमि
सम्यक् सम्यक् भगिनि सविता भगिनी
सूक्ष्म अहं सूक्ष्मदर्शकेन सूक्ष्मवस्तूनि पश्यामि
सूक्ष्मवस्तूनि पश्यामि अस्तु
अहं सूक्ष्मदर्शकैः अहं सूक्ष्मदर्शकैः सूक्ष्मवस्तूनि पश्यामि
सम्यक् सूक्ष्मदर्शकैः
बैनोक्युलर्स्
बैनोक्युलर् अथवा मैक्रोस्कोप्
मैक्रोस्कोप्
मैक्रोस्कोप् सूक्ष्म अस्तु अग्रे उमाकृष्णन् भगिनी
कम्पिका अहं केशप्रसादनं करोमि
अत्रापि कङ्कतम् इति अस्ति खलु कङ्कतम् अत्रापि कङ्कतं कङ्कतं कङ्कतम् इत्युक्ते कोम्ब् कङ्कतिका अपि कोम्ब् एव कोम्ब्
कङ्कतिकया कङ्कतिकया अहं केशप्रसादनं करोमि कङ्कतिकभिः
कङ्कतिकाभिः सो यु जस्ट् से द वर्ड् अण्ड् देन् आड् भिः
कङ्कतिकाभिः कङ्कतिकाभिः अहं केशप्रसादनं करोमि
केशप्रसादनम् इत्युक्ते टु कोम् द हेर् केशप्रसादनं करोमि सम्यक् बहु सम्यक् परमेश्वर महोदय लोकयानं
दूरवाणीम् अहं सम्भाषणं करोमि
अस्तु
दूरवाणीभिः अहं सम्भाषणं करोमि
सम्यक् बहुवचनम् एकवचनं
दूरवाणीम् अहं सम्भाषणं करोमि
दूरवाणीम् इति द्वितीया विभक्ति खलु दूरवाणीं पश्यामि
ओके दूरवाणी दूरवाणीम् अहं
दूरवाणी सो अत्र तृतीया विभक्तिरूपं या आगच्छति या
दूरवाण्या दूरवाण्या
अहं सम्भाषणं करोमि. सम्यक् सम्यक् अस्तु. उषा भगिनी द्विचक्रिका आं भगिनि आं वि मिस् द लोकयानं. अस्तु
लोकयानं प्रयाणं करोमि. लोकयानं लोकयानेन लोकयानेन प्रयाणं करोमि. लोकयानेन नैः
सम्यक् लोकयानैः
लोकयानैः ओके लोकयानैः प्रयाणं करोमि.
सम्यक् सो इट् वास् रेपिटिशस् सो वेन् हि स्किप् एतत् अस्तु सम्यक् एव इति अस्तु.
दूरवाणी इस् डन् आल्रेडि द्विचक्रिकया विद्यालयं गच्छामि.
बहुवचन द्विचक्रिकाभिः अस्तु. श्रीनिवासमहोदय अग्रे
लेखनी रैट्
आम्
लेखन्या अहम् अक्षराणि लिखामि.
सम्यक्
बहुवचनं लेखन्भिः
लेखनी पुनः वदतु
लेखनीभिः अहम् अक्षराणि लिखामि.
सम्यक् लेखनीभिः सो अत्र पदम् उक्त्वा भिः तावदेव उक्त्वा भिः. अस्तु अम्ब
कूर्चेन विना अहं चित्राणि लिखामि.
बहुवचनं
कूर्चाभिः
भिः अत्र अकारान्तपुल्लिङ्ग अकारान्तनपुंसकलिङ्ग अस्ति चेत् भिः न आगच्छति ऐः इति आगच्छति. ऐः
कूर्चैः
कूर्चैः
चित्राणि लिखामि.
कूर्चैः चित्राणि लिखामि. कूर्चेन चित्राणि लिखामि. कूर्चैः चित्राणि लिखामि. सम्यक् अस्तु. केतकी भगिनि
स्यूते स्यूतः अहं वस्तूनि आनयामि. स्यूतेन अहं वस्तूनि आनयामि. स्यूतैः
सम्यक् वदतु स्यूतैः किं करोति.
स्यूतैः अहं वस्तूनि आनयामि.
सन्ध्या भगिनि
तुलया अहं वस्तूनि तोलयामि. तुलाभिः अहं वस्तूनि तोलयामि.
सम्यक् सम्यक् खलु बहु सुलभः खलु बहुवचनं तुलाभिः वस्तूनि तोलयामि. अस्तु अत्र द्विवचनं कथं भवति. सर्वत्र भ्याम् एव भ्यां तुला अस्ति चेत् तुलाभ्यां कूर्चः कूर्चाभ्याम्. अस्तु अग्रे शारदा भगिनी.
Bhagini, I have a small doubt. In the eighth sentence, Lokayanam, how do you figure out whether it is Kriti or Tritiya? I travel in a bus.
So, we cannot... Lokayane aham asmi, like that. But when you are traveling, it is... Tritiya Vibhakti.
If I'm telling somebody I travel by
train, then I'll have to say Tritiya. I mean, that rather than I'll have to say Tritiya. On the other hand, if I say I am in a bus, I'll have to say
Lokayane Asmi.
Okay.
Uttama Vedaha. अस्तु अग्रे सन्ध्या अभवत् शारदा भगिनी दन्तकूर्चः
दन्तकूर्चेन अहं दन्तधावनं करोमि दन्तकूर्चैः अहं दन्तधावनं करोमि
सम्यक् भगिनी दन्तकूर्चैः दन्तकूर्चेन कूर्चैः अस्तु ओ अभवत् वा अस्तु 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 अन्य सन्दर्भः अस्ति द्वितीयसन्दर्भः प्रथमम् अस्ति साधनं यत् साधनम् उपयुज्य वयं किमपि कुर्मः तत् साधनं तृतीयाविभक्तिरूपेण लिखामः अस्तु द्वितीयम् अस्ति भावसूचकानां भावसूचकम् इत्युक्ते मनोभावः अस्ति खलु सन्तोषः दुःखं खिन्नः आनन्दः इत्यादि कष्टं सुलभ इत्यादि भाववाचकानां शब्दानाम् अपि तृतीया भवति उदाहरणं क्रीडितुं गतवान् कथं क्रीडितुं गतवान् सन्तोषेण क्रीडितुं गतवान् सन्तोषेण अभ्यासः वाक्यस्य अन्ते दत्तस्य शब्दस्य तृतीयाविभक्तिरूपेण रिक्तस्थानानि पूरयत अस्तु अग्रे सवित्रा भगिनी खलु इदानीम् उदाहरणं पठतु अनन्तरं वाक्यम्
आं भगिनि उदाहरणं बालकः सन्तोषेण क्रीडितुं गतवान्
अस्तु बालकः
अभ्यासः वाक्यस्य अन्ते दत्तस्य शब्दस्य तृतीयाविभक्तिविभक्त्या अन्तरूपेण रिक्तस्थानानि पूरयत यथा सः परिश्रमेण कृषि करोति स्म परिश्रमेण कृषि करोति
अत्र अपि कार्यं करोति सन्तोषेण कार्यं करोति मनोभावः कः तस्मिन् समये मनोभावः कः परिश्रमः परिश्रमेण कृषिं करोति स्म अस्तु भगिनि करोतु प्रथमं
करोतु
आम् भगिनि
माता क्रोधेन बालकं ताडितवती
सो अत्र साधारणतया पुल्लिङ्ग नपुंसकलिङ्ग भवति साधारणतया अतः सर्वत्र एन एव परन्तु त्वरा इत्यादि आगच्छति चेत् स्त्रीलिङ्गं भवति तृप्ति इकारान्तपदम् अस्तु तत्रापि या भवति नो चेत् साधारणतया एन एव भवति अस्तु उमाकृष्णन् भगिनी
Bagini, sorry, this Mata is Strilingam, Krodaha is Pullingam. Krodaha become Krodayana or because it is Mata, it should become Krodaya.
No. We concentrate only on the word, that's all. Aham? Okay. Yeah, that's an excellent question. Kimartam itukte, so all these are called adverbs, kalo. So, so we call it क्रियाविशेषणम् ओके क्रियाविशेषणम् अव्ययानि क्रियाविशेषणपदानि अव्ययानि परिवर्तनं न भवति एव उत्तमप्रश्नः महोदय सो अहं क्रोधेन ताडयामि सर्वे क्रोधेन क्रन्दति शौटिङ्ग्
So, कर्तृपदम् इस् इण्डिपेण्डेण्ट् दिस् अड्वर्ब् इस् इण्डिपेण्डेण्ट् आफ् कर्तृपदम्
आमाम्
Okay.
So adverb is actually avyayam. It never changes. Never, ever, ever changes.
Okay.
So basically adverb is describing the verb.
describing how the verb was done. Yes.
Yeah. So it's more like an adjective, like.
No. It's an adverb.
Adverb.
But adjective for the verb. What kind?
No. Adjective means definition noun. It describes the verb. Iti vadat. It describes the verb. Yeah, correct. It describes the verb. Correct. So ataha we call it kriya visheshanam. Usually it is visheshanam for the nama pada. Nama vishesha. So etat nama visheshanam na kriya visheshanam.
That's it. That's the distinction I was trying to
make. That's the distinction. Correct, Bhagini. Correct. Nama visheshanam is based on the nama pada. Kriya visheshanam is independent. It's independent, it's an avyayam. Uttama. Astu. Uma Krishnan Bhagini.
Nirdhanaha kashtena danam sampadayati.
Sampadayati. Kashtena danam sampadayati. Nirdhanaha. So if you change anything like aham, bhavan, bhavati, sarvatra, kashtena eva agachati. Kashtena. Astu. Parameshwar Mahodaya.
One second. Vyagram drishtva prandaha bhayena kapte sma.
Bhayena kampate sma. Bhayena
kampate sma.
Kampate sma. Kampate means shaking. So, atra we call this atmane padidhatu, where we have the A ending, kampate, is usually taditavati, sampadayati. Gacchati, patati, but this is te. So this is atmane paridhatu. It still doesn't change. Bhayena kampate eva. Usha Bhagini.
Vyagram, finish that.
Chaturtam.
Marana vatam shrutva sa dukhena rodanam kritavati.
Rodan, dukhena. अस्तु श्रीनिवास महोदय
आं भगिनि भवान् यत् करोति तत् आनन्देन करोतु
तत् आनन्देन करोतु यत् करोति तत् आनन्देन करोतु आनन्दः नास्ति चेत् मा करोतु इति अर्थे अस्ति अस्तु अम्ब
त्वरेण किमपि कार्यं मा करोतु
मा करोतु सो अत्र त्वरा इति अस्ति खलु स्त्रीलिङ्गपदं
त्वरया
सम्यक् त्वरया किमपि कार्यं मा करोतु उत्तमम् अम्ब धन्यवादः केतकि भगिनि
त्वरा मीन्स् वाट्
हेस्ट् avasaram haste
hari
okay hari okay. Hari
quickly
twarandam
yeah as an adverb yeah. Right
in a rush yeah don't rush into anything correct samya ketake bagini
taha adhikari sada api rakshata vyavharati rakshataya vyavharati akaranta
रूक्षतया व्यवहरति अधिकारी सदा रूक्षतया व्यवहरति अस्तु संध्या भगिनी
भोः रक्षकाः भवन्तः जागरूकतया भवनं रक्षन्तु
भवनं जागरूकतया अस्तु शारदा भगिनी
मया विशेषतया किमपि वक्तव्यं नास्ति
सो दिस् इस् कर्मणि प्रयोग खलु वक्तव्यं पठितव्यम् इति आगच्छति चेत् कर्मणि प्रयोग तथा तृतीयाविभक्तिरूपं भवति. कर्ता तृतीयाविभक्तिरूपं स्वीकरोति. कर्ता अहं वक्तव्यम् इति दोषाय दोषः. ओके अस्तु. सविता भगिनि.
भगिनी जस्ट् वन् क्लारिफिकेशन्. सो भावसूचकशब्दं मीन्स् एड्वर्ब् इस् इट्
no bhava vachakam this is only bhava I'm sorry bhava suchakanam correct bagini adverb
oh.
bhava suchaka bhava suchaka shabda yep. shabda hai ast visheshaya dhanyavad ast agre savita bagini kalu agre
aam bagini रामा रमेशयोः विवाहः वैभवेन प्रवृत्तः.
वैभवेन प्रवृत्तः विमर्शेन प्रवृत्तः. सत्यम्.
इङ्ग्लिश् वर्जन् फार् देट् भावसूचकानां वै वि शो एमोशन्स् सो ओन्लि क्रियाविशेषणं मीन्स्
एड्वर्ब् क्रियाविशेषण इस् अड्वर्ड् करेक्ट् अड्वर्ड् अस्तु. उमाकृष्ण भगिनी.
आं भगिनि. कष्टं यावत् वा भवतु भवान् सहनया कार्यं करोतु.
सहनया कार्यं करोतु. कष्टं यावत् वा भवतु नो मेटर् हौ हार्ड् इट् इस् सहनया कार्यं करोतु वित् टालरेन्स् खलु. सहना टालरेन्स् सहनया कार्यं करोतु. अस्तु. परमेश्वर महोदय किञ्चित् विलम्बः जातः परन्तु एतत् समाप्य गच्छामः.
एतत् वार्ता श्रुत्वा सा तृप्तया निश्वसितवती.
एतां वार्तां श्रुत्वा सा तृप्त्या निश्वसितवती. इत्युक्ते आफ्टर् हियरिङ्ग् दिस् वाट् डिड् शी डू शी हेपिलि आर् कण्टेण्ट्लि ब्रीद् द सै आफ् रिलीफ् इति वदामः खलु.
तृप्त्या.
अस्तु. उषा भगिनि.
अध्यापकस्य तर्जनं श्रुत्वा सा अवनमय्य स्थितवती. अध्यापकस्य तर्जनं श्रुत्वा सा लज्जया शिरः अवनमय्य स्थितवती.
सम्यक्. अवनमय मीन्स् वित् हेड् फालिङ्ग् डौन् लैक् दट्
ह्युमिलियेशन्
with the head going down like that. Going down. Astu. Srinivas Mahodaya.
Aam Bhagini. Kaha saha iti Govindaha kutuhalena Ramam prashtavan.
Kutuhalam ityukte? Curiosity.
Curiosity.
सः कः. हू इस् हि इति गोविन्दः रामं पृष्टवान्. क्यूरियासिटि. क्यूरियस्लि इति. अम्ब अन्तिम.
पराजयं प्राप्य सः निराशतया प्रतिगतवान्.
प्रतिगतवान् निराशतया. निराशतया इत्युक्ते this aunt. Enamma, what did you say?
Nirashayod.
Nirashayod, okay.
Correct.
Asha, Nirasha, samyak. Nirashayod. Parajayam prapya, saha nirashataya pratigatavan. Astu.
Bhagini?
Bhagini?
The 14th sentence, can we use kautuhalena? Kaha saha iti govindah kautuhalena ramam prishtavan?
Kutuhalena eva samyak bhagini.
More correct?
Okay. Kutuhalena.
Bhagini, what does visheshataya mean?
Something very important like that. Visheshataya kimapi nasti.
Bhagini, kutuhalam and kautu, what did she say? Kautuha. That's two different word meanings.
Kautuhalam anubhutavan, he experienced curiosity iti asti kalu. That is what I think is kautu. Kautuhalam.
Okay, Bhagini.
I will check that up, Bhagini. Okay?
Okay.
Yeah.
Bhagini, the reason I asked was this, in this entire list, it is only Visheshataya that doesn't seem to suggest there is nothing particular to say, I mean, is what the sentence means. Visheshataya kimapi vaktavyam nasti. Everything else seems to suggest some, emotion.
I see. Yes, good observation, Bhagini, but I didn't even think like that. Something to think about. Astu. Vayam viramama shanti mantram uktva. Agre vayam kritiya abhyasatah arambam kurma. Vadatu, Bhagini.
सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ धन्यवादः भगिनि
धन्यवादः भगिनि
धन्यवादः
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 सो विल् कण्टिन्यू फ्रोम् दिस् पेज् नेक्स्ट् क्लास्
आम्
ओके ओके धन्यवादः
मालती भगिनी कथमस्ति
न जानामि ऐ थिङ्क् शी
शी इस् देर्
ओ शी देर्
या शी इस् देर्
ओके
इदानीमेव नाम पश्यामि
ऐ एम् जस्ट् लिस्निङ्ग् इन् म्यूट्
चिन्ता मास्तु भगिनि चिन्ता मास्तु दे आर् आल् इन् अ जर्नी टुगेदर् तावदेव अस्तु नो प्राब्लम्
That site is very